नमस्सर्वेभ्यः। अद्य चम्पूरामायणस्य बालकाण्डे अष्टाविंशः पाठः, जुलै मासस्य नवमः दिनाङ्कः। केऽपि मङ्गलं कर्तुमिच्छन्ति? गायत्री रङ्गराजन्, you have to unmute yourself.
Hello. Lakshmim tanitu nitaram
tanotu nitaram
tanotu nitaram vitaram apeksham. What is the okay, thank you. Can you spell it? अङ्ग्रिद्वयं निगम शाखि शिखा प्रवाणं हैरम्भम् अम्बुरुह धम्भर चौर्य निष्णम्
निघ्नम्
निघ्नम् विघ्नाद्धि भेद शतधार दुरन्धरं नः।
सम्यक्, धन्यवादः। किञ्चित् पुनरावर्तनं कुर्मः। विश्वामित्रः रामलक्ष्मणौ मिथिलां प्रति नयन् अस्ति। तत्र मार्गे गङ्गानद्याः तीरे गङ्गायाः कथां पृच्छति रामः। तत्र भागीरथी कथां श्रोतुकामाय रामाय भगवान् इत्थमकथयत्। तत्र हिमालयः पुरा मनोरमा नाम सुमेरोरभवत्सुता गृहमेधी तयैवासीत् चक्रवर्ती धराभृताम्। पर्वतानां चक्रवर्ती हिमालयः मनोरमा नाम्नीम् ऊढवान्। सा मनोरमा सुमेरोः पुत्री, तयोः कन्याद्वयम् आसीत्। कन्याद्वयमनुष्यासीत् एका मन्दाकिनी तयोः, अन्या भगवती साक्षात् चन्द्रचूडकुटुम्बिनी। तत्र जायसी गङ्गा, कनीयसी गौरी इति कन्याद्वयम् आसीत्। तत्र गङ्गा देवैः सम्प्रार्थ्य स्वर्गलोकं नीता लोकहितार्थम्, अत एव सा स्वर्णदी इति कथ्यते। द्वितीया तु तपस्यन्तीं गिरिर्गौरीं देवाय महते ददौ, महादेवाय शिवाय दत्तवान् हिमालयः उमाम्। उमा एव गौरी, पार्वती। तत्र विवाहानन्तरं शिवयोर्युञ्जतोर्वीर्यं दृष्ट्वा धात्र्यां समर्पितम्। शिवयोः संयोगं देवाः एव निवारितवन्तः। यतोहि यदि शिवस्य औरसः पुत्रः दीर्घकालस्य तस्य संयोगानन्तरं यदि औरसः पुत्रः जायेत तर्हि तं सोढुं लोकत्रये शक्तिः न भवेत् इति धिया देवाः निवारितवन्तः। तदा भूमौ पतितं वीर्यं पावकः प्रतिदग्राह दैवतैरनुनासितः अग्निः स्वीकृतवान् इत्येतावत् पर्यन्तम् अस्माभिः गतवर्गे दृष्टम्। इदानीम् अग्रे पश्यामः। अनुवक्तुमिच्छन्ति? Anybody? Volunteers to repeat. Vasudevan.
Hello, Shruyate va?
Shruyate. Anapathyanathamathyan.
बहुभार्यां च मेदिनीम्
अकरोदम्बिका क्रोधः
అకరోదంబికా క్రోధః పుత్రాలాభసముద్భవః పుత్రాలాభసముద్భవః
పదచ్ఛేదః
అనపత్యాన్ అథ అమర్త్యాన్ బహుభార్యాం చ మేదినీం అకరోత్ అంబికా క్రోధః పుత్రలాభ సముద్భవః పుత్రాలాభ సముద్భవః
అనపత్యాన్ అథ అమర్త్యాన్ బహుభార్యాం చ మేదినీం అకరోత్ అంబికా క్రోధః పుత్ర అలాభ పుత్రాలాభ సముద్భవః ఇతి పరచ్ఛేదః కః అర్థః తత్ర ఆకాంక్షాక్రమేణ పశ్యామః చేత్ అథ అథ ఇత్యస్తి తదనంతరం ఇత్యర్థః కదా శివస్య వీర్యే భూమౌ పతితే సతి సో శివపార్వత్యోః సంయోగః దేవైః తత్ర సంయోగే భంగః ఆచరితః తదా శివస్య వీర్యే భూమౌ పతితే సతి అకరోత్ ఇతి క్రియాపదం వ్యదధాత్ కః అకరోత్ అంబికా క్రోధః అంబికా నామ పార్వతీ పార్వత్యాః క్రోధః రోషః సో ద యాంగర్ ఆఫ్ పార్వతీ సో కీదృశః అంబికా క్రోధః చేత్ పుత్రాలాభ సముద్భవః పుత్రస్య అలాభః పుత్రం న లబ్ధవతీ పార్వతీ వస్తుతః పార్వత్యా ఏవ పుత్రః ప్రాప్తవ్యః ఆసీత్ కింతు పుత్రస్య అలాభేన నామ అప్రాప్త్యా ఉత్పన్నః సో ద యాంగర్ ఆఫ్ పార్వతీ డ్యూ టు నాట్ బిగెటింగ్ అ సన్ సో పుత్రాలాభ సముద్భవః అంబికా క్రోధః అకరోత్ కిం అకరోత్ అమర్త్యాన్ అనపత్యాన్ మేదినీం బహుభార్యాం చ అకరోత్ ఇతి అన్వయః అమర్త్యాన్ దేవాన్ అనపత్యాన్ న అపత్యాని ఏషాం తే అనపత్యాః నామ సంతానహీనాన్ అకరోత్ సో పార్వతీ కోపేన శాపం దత్తవతి దేవాన్ శప్తవతి కిమితి భవతాం స్వీయాసు భార్యాసు పుత్రప్రాప్తిః న భవేత్ ఇతి పార్వత్యాః శాపః అతః అమర్త్యాన్ అనపత్యాన్ అకరోత్ పునః కిం అకరోత్ మేదినీం బహుభార్యాం అకరోత్ భూమిః ఏవ స్వీకృతవతి శివస్య వీర్యం అతః భూమిం మేదినీం నామ భూమిం బహుభార్యాం బహూనాం భార్య బహుభార్య అనేకపత్నీం అకరోత్ బహవః భర్తారః భవంతు ఇతి భూమిం అపి శప్తవతి కా పార్వతి సో అన్వయః అథ పుత్రాలాభ సముద్భవః అంబికా క్రోధః అమర్త్యాన్ అనపత్యాన్ మేదినీం బహుభార్యాం చ అకరోత్ కిం తాత్పర్యం శివస్య వీర్యే భూమౌ పతితే సతి తనయస్య అప్రాప్త్యా ఉత్పన్నః పార్వత్యాః రోషః సో వెన్ దేర్ ప్లే వాజ్ ఇంటరప్టెడ్ సో దట్ పార్వతీ కుడ్ నాట్ బిగెట్ అ సన్ ఫ్రమ్ శివ So she was angry and her anger made the amartyan anapatyan devan santanahina nakarot so made the devas to be to not beget sons right or children bhumim aneka patnim cha vyadathat bahubharyam cha medinim and her anger also made bhumi to be the wife of many so ramayane uchyate atha shailasuta rama tridashan devan idam abravit samanyuh ashapat sarvan so samanyuh manyuh krodhah so krodhena sarvan ashapat she cursed all the devas krodha samrakta lochana kimiti యస్మాన్ నివారితా చైవ సంగతిః పుత్రకామ్యయా అపత్యం స్వేషు దారేషు తస్మాత్ న ఉత్పాదయిష్యథ సిన్స్ యు హావ్ ప్రివెంటెడ్ మై యూనియన్ విత్ శివ విచ్ వాజ్ ఫార్ బిగెటింగ్ అ సన్ సో svesu dareshu, in your wife, apatyam na utpada ishyatha. So you will not be able to bear any children with your wife. Adhyap prabhati ushmakam apraja santu patnayaha. So from today, all your wives will be without children. Like I do not have a child. So similarly, all your wives will be without children. Adhyap prabhati ushmakam apraja santu patnayaha. Eva muktva suran sarvan shashapa prithivim api. So prithivim api shashapa. Avane naikarupatvam bahubharya bhavishyati. Nata putrakritam pritim matkrodha kalushikrita. Rapsyasitvam sudurmedhe mama putram anichyati. So you have also contrived so that I do not have a son. Ataha putrakritam pritim na prapsyati. So you will not get the affection of children. So despite having, being a bahubharya, you will not have the delight of having children. Iti parvatyaha krodha. So, anapatyan athamartyan bahumharyan cha medinim akarod ambika krodhaha putra labha samudhavaha. So, balakande ete shlokaha vidyante. Anapatyan avidyamanani apatyani yesham te anapatyaha tan. Bahugrihi samasaha. Amartyan, Amara Nirjara Deva Stridasha Vibhudha Suraha Suparvana Sumanasa Stridivesha Divaukasaha Tastra Amarakoshe Aditya Rubhavaha Aswapnaha Amartyaha Amritandhataha Na Martyaha Na Mriyante Ityarthaha. So, without death. The Amartyaha Devaha Bahubharyam Bahunam Bharya Bahubharya, tam, bahubharyam, medinim, medini, bhumihi, gotra, kuhu, prithivi, prithvi, kshma, avanihi, medini, mahi. Iti, bhumehe, paryayeshu, amarakoshe, drishyate. Akarot, dukrinya, karane, dhatoho, langlakare, prathamapurushe, ekavachanam. Ambika krodhaha, ambikayaha krodhaha, ambika krodhaha, aparna parvati durgam ridani chandikam vika. Iti parvatyaha paryayaha, kopa krodha marsha rosha pratigha rut krudhau kriyau, kopaha krodhaha amarshaha roshaha pratighaha. All these are synonyms in pullinga for kopa. Rut krudhau priyau. So there is a shabda called rut. Rush shakarantaha strilingaha. And krudh dhakarantaha strilingaha. So all of them mean kopa. So akarot ambika krodhaha putra labha samudbhavaha. Na labhaha alabhaha putrasya alabhaha. So putra labhaha samudbhavaha yasya saha. So that which originated in putra labha, not having a son. Anapatyanatha matyan bahubhartyancha medinim akarodambika krodha putra labha samudbhavaha. Agregachamaha. Gayatri.
Am I audible?
Yes. Atha senanyam ichchadbhihi.
Atha senanyam ichchadbhihi. Atha senanyam ichchadbhihi.
Uktasya brahma visurayihi.
Uktasya brahma visurayihi. Uktasya can you just say it again, ma'am?
Uktasya brahma visurayihi.
Uktasya brahma visurayihi.
Vanhiranhaya janhavyam.
Vanhiranhaya janhavyam. पन्हिरन्हाय जाह्नव्या
न्यषिञ्चद्वीर्यमैश्वरम्
न्यषिञ्चद्वीर्यमैश्वरम् अथ सेनान्यम् इच्छद्भिः रुक्तः उक्तः ब्रह्मभिः सुरैः वह्निः अह्नाय जाह्नव्याम् न्यषिञ्चद् धीर्यम् ऐश्वरम्
अथ सेनान्यम् इच्छद्भिः उक्तः स ब्रह्मभिः सुरैः वह्निः अह्नाय जाह्नव्याम् न्यषिञ्चत् वीर्यम् ऐश्वरम् अथ ततः मध्ये पार्वत्याः शापः उक्तः किन्तु ततः पूर्वं किं जातम् भूमौ पतितं शिवस्य वीर्यम् अग्निः स्वीकृतवान् किन्तु अग्निः अपि तत् बहुकालं धर्तुं न शक्तवान् अतः अथ तदनन्तरं न्यषिञ्चत् स्थापयामास किं न्यषिञ्चत् वीर्यम् रेतोरूपं तेजः सो द तेजस् द वीर्य विच् अग्नि हेड् कलेक्टेड् सो हि प्लेस्ड् इट् सो कीदृशं वीर्यम् ऐश्वरं वीर्यम् ऐश्वरम् ईश्वरसम्बद्धम् सो ईश्वरस्य वीर्यम् कस्यां न्यषिञ्चत् जाह्नव्याम् जाह्नवी गङ्गा सो गङ्गायाम् अग्निः शिवस्य वीर्यम् स्थापितवान् कथम् न्यषिञ्चत् अह्नाय सो अह्नाय इति अव्ययम् झटिति इत्यर्थः सो इमीडियट्लि so he could not even agni himself is tejas but agnih api shivasya viryam dhartum asamarthah asit atah jhatiti gangayam tadviryam sthapayamasa kah nyashinchat vanhih agnih kidrashah vanhih suraih uktah suraih devaih suchitah सः धर्तुं न शक्नोमि किं करोमि इति यदा सः खिन्नः आसीत् तदा देवैः उक्तः कीदृशैः सुरैः स ब्रह्मभिः सो ब्रह्मणा सहितैः सुरैः सेनान्यम् इच्छद्भिः सेनान्यम् सेनानीः नाम सेनापतिः अत एव एतत् सर्वापि कथा तत्रैव आरब्धा तारकासुरः त्रैलोक्यं बाधते स्म तदा तस्य विरुद्धं योद्धुं सेनापतिम् इच्छन्तः सुराः शिववार्यत्योः विवाहं साधितवन्तः सो द होल् स्टोरी स्टार्ट्स् देर् सो शिवा इस् इन् तपस् एण्ड् पार्वती वास् आल्सो डूयिङ्ग् तपस् सो इट् वास् द गाड्स् हू ब्राट् बन्मथा एण्ड् ट्रै टु ब्रिङ्ग् टुगेदर् शिवा पार्वती एट्सेट्रा सो सेनान्यम् इच्छद्भिः सेनापतिं कामयमानैः सुरैः देवैः उक्तः पुनः कीदृशैः स ब्रह्मभिः ब्रह्मणा सहितैः सो ब्रह्मा पितामहः सो तेन सहिताः सुराः अग्निम् उक्तवन्तः किं वीर्यं गङ्गायां त्यज इति अथ सेनान्यम् इच्छद्भिः स ब्रह्मभिः सुरैः उक्तः वह्निः ऐश्वरं वीर्यम् अह्नाय जाह्नव्यां न्यषिञ्चत् इति अन्वयः सो अथ सेनान्यम् इच्छद्भिः स सब्रह्मभिः सुरैः उक्तः वह्निः ऐश्वरं वीर्यम् अह्नाय जाह्नव्याम् न्यषिञ्चत्। सो ततः सेनापतिं कामयमानैः ब्रह्मसहितैः देवैः सूचितः अग्निः। सो अग्नि वाज अड्वाइज्ड बाय द देवास हेडेड बाय ब्रह्मा। सो हू वर ऑल डिजायरिंग फॉर द बर्थ ऑफ देयर कमांडर सून। सो सेनान्यम इच्छद्भिः सब्रह्मभिः सुरैः उक्तः वह्निः। सो ईश्वरस्य रेतो रूपं तेजः झटिति गंगायां स्थापयामास। सो हि इमीडिएटली हि पुट दट तेजस इन गंगा, इन द रिवर गंगा, हु वाज फ्लोइंग थ्रू द हेवन्स एज वाज अर्लियर मेंशन्ड। सो सेनान्यम, सो ईकारान्तः पुल्लिङ्गः, इट इज अ रेयर वर्ड, सामान्यतः ईकारान्तः पुल्लिङ्गाः अधिकतया न भवन्ति। सो सेनानी शब्दः, सेनानीः, सेनान्यौ, सेनान्यः, सेनान्यम् इति द्वितीया विभक्तौ एकवचनम्। इच्छद्भिः, इश इच्छायाम् इति धातोः शत्रुप्रत्ययान्तः, इच्छन् इच्छन्तौ इच्छन्तः। सो तकारान्तः पुल्लिङ्गः, तृतीया विभक्तौ बहुवचनम्। इच्छद्भिः उक्तः, वचपरिभाषणे धातोः क्त प्रत्ययः उक्तः। सब्रह्मभिः, ब्रह्मणा सह वर्तन्ते इति सब्रह्माणः तैः। सो सब्रह्मन् नकारान्तः पुल्लिङ्गः, तस्य तृतीया विभक्तौ बहुवचनम्। सो सुरैः इत्यस्य विशेषणम्। वह्निः, अग्निर्वैश्वानरो वह्निः वीतिहोत्रो धनञ्जयः। सो वह्निः अग्निः इत्यस्य पर्यायः। अन्नाय इति अव्ययम्। सो इट लुक्स लाइक चतुर्थी विभक्ति किन्तु अव्ययम् पदम्। सो झटिति इत्यर्थः। जाह्नव्या, जह्नोः अपत्यम् जाह्नवी। सो अग्रे गंगावतरणस्य कथायाम् उच्यते, गंगा हिमालयात् प्रभवन्ती गंगा जह्नुमहर्षेः आश्रमम् आप्लावितवती। तेन क्रुद्धः जह्नुमहर्षिः गंगां पीतवान्। ततः जह्नोः कर्णात् बहिरागता गंगा, अतः जाह्नवी इति तस्याः नाम। सो जह्नु इत्यस्मात् अण् तद्धितप्रत्ययः, तस्मात् नीप् इति स्त्रीप्रत्ययः। जाह्नवी इति ईकारान्तस्त्रीलिङ्गः, सप्तमी विभक्तौ एकवचनम्। सो जाह्नव्यां न्यषिञ्चत्, नी उपसर्गः शिचक्षरणे इति धातुः, सिञ्चति तस्य लङ्लकारे प्रथमपुरुषे एकवचनम्। न्यषिञ्चत् ऐश्वरम्, ईश्वरस्य इदम् ऐश्वरम्, ईश्वरशब्दात् अण् प्रत्ययः। सो वह्निरन्नाय जाह्नव्यां न्यषिञ्चत् वीर्यम् ऐश्वरम्। शी इस् नाट् येट् जाह्नवी, इतोपि वस्तुतः स्वर्गलोके एव अस्ति, भूलोकं नागता। So the use of the word Janhavi is purely for the Shabda Alankara. Vanhihi Annaya Janhavyam. So Asa Senanyam Icchadhihi Uktasa Brahma Vissuraihi Vanhir Annaya Janhavyam Yashinchad Virya Maishwaram. Agrimashrokaha. Tumichanti.
पद्मा तेजस्तद्बोधुमक्षमा
हिमवत्प्रान्तकान्तरे
हिमवत्प्रान्तकान्तारे
श्रान्ता शरवणे जहौ
शान्ताशरवणे जहौ शान्ताशरवणे जहौ सा अपि वदामि वा
आमां वदतु वदतु
सा अपि सप्तार्चिषा क्षिप्तं तेजस्
तदेजः
तेजः तद् ऊदुमा क्षमा
ओढुम्
ओढुं क्षमा
हिमवत्
हिमवत् प्रान्ताकारान्तरे
प्रान्तकान्तारे
प्रान्तकान्तारे श्रान्ता शरवणे जहौ
जहौ सम्यक् सा अपि सापि सप्तार्चिषा सप्त अर्चिस् सप्तार्चिषा क्षिप्तं तेजः तत् वोढुम् अक्षमा हिमवत् प्रान्तकान्तारे श्रान्ता शरवणे जहौ जहौ त्यक्तवती का जहौ सा गङ्गा अपि सो वह्निः अपि वोढुम् अशक्तः गङ्गा अपि वोढुं न शक्तवती वह्निः तेजोरूपः गङ्गा नदी शीतला सो उभाभ्यामपि वोढुम् अशक्यमासीत् ईश्वरस्य वीर्यम् सो जहौ त्यक्तवती सापि नाम गङ्गा अपि जहौ कीदृशी सा श्रान्ता सो परिक्लान्ता एक्स्ट्रीम्लि टयर्ड् सो किमर्थं श्रान्ता अक्षमा सो क्षमा नाम सामर्थ्यम् इत्यर्थे अस्ति सो नार्मलि वि यूस् क्षमा फार् फर्गिव्नेस् दट् इस् डिफरेण्ट् सो तत्र क्षमा इत्यस्य फोर्बेरेन्स् द एबिलिटि टु बेर् सर्वत्रापि क्षम शब्दस्य स एव अर्थः द एबिलिटि टु बेर् सो तत्र सामान्यतः क्षमा सहना क्षान्तिः इत्यत्र टालरेन्स् फर्गिव्नेस् इत्यर्थे उपयुज्यते अत्र तु समर्थ इत्यर्थः अक्षमा नाम असमर्थ सो नाट् बीङ्ग् एबल् टु बेर् सो अक्षमा किं कर्तुम् अक्षमा वोढुं धारयितुं सो टु होल्ड् वोढुम् अक्षमा सो किं वोढुम् अक्षमा तत् तेजः सो शिवस्य यत् तेजः वीर्यम् आसीत् कीदृशं तेजः क्षिप्तं न्यस्तं सो फयर् आर् अग्नि थ्र्यू द तेजस् आर् प्लेस् द तेजस् इन् गङ्गा किन्तु क्षिप्तं केन क्षिप्तं सप्तार्चिषा सप्तार्चिः अग्निः इत्यर्थः सो अग्निना न्यस्तं शिवस्य वीर्यं धारयितुम् असमर्था गङ्गा सो गङ्गा वाज् आल्सो नाट् एबल् टु बेर् शिवास् वीर्य विच् वास् प्लेस्ड् इन् हर् बै अग्नि सो अत एव श्रान्ता हेन्स् शी वास् टयर्ड् एण्ड् जहौ शी गेव् इट् अप् आर् रिलीज्ड् इट् कुत्र जहौ शरवणे सो शर इस् अ कैण्ड् आफ् ग्रास् टाल् ग्रास् सो शरप्रचुरं वनम् so place which had full of that shara grass so sharavane kutra asid idam sharavanam kidrishe sharavane himavat pranta kantare himavatah prante samipe ekam kantaram nama aranyam so there was a forest near the himalayas which had abundant shara grass so tasmin sharavane सा जहौ गङ्गा शिवस्य वीर्यं त्यक्तवती सो सापि सप्तार्चिषा क्षिप्तं तत् तेजः वोढुम् अक्षमा श्रान्ता हिमवत् प्रान्तकान्तारे शरवणे जहौ सो गङ्गा अपि अग्निना न्यस्तं शिवस्य वीर्यं धारयितुम् असमर्था So not being able to bear the tejas of Shiva, which was placed in her by Agni, Pariklanta Sati, so being tired, Himalayasya Samipathe, Sharaprasure Vane Tyaktavati. So Ganga released it in a forest of Sharadra near the Himalayas. Saptarchisha. Saptarchis. Iti sakarantaha pullingaha tritiya vibhavtau ekavachanam. So Agni is supposed to have seven flames. Sapta archayaha yasya saha saptarchihi. So Amarakoshepi asti. Saptarchir damuna shukraha chitrabhanur vibhavasuhu ityadi. So saptarchi is Agni. So saptarchisha. Shiptam tejaha tat vodhum. Vaha prapane vahati ityasya tumun pratyayanta shabdaha vodhum iti. Sodhum vodhum. Sahate sodhum vahati vodhum iti bhavati. So vodhum akshama himavat pranta kantare shranta sharavane jahau. Jahau ohak tyage iti dhatuhu jahati iti. Tasya litlakare prathama purushe ekavachanam jahau tyaktavati ityarthah. Sāpi saptārchiṣā kṣiptam tejastadvodhumakṣamā himavat prāntakāntāre śrāntā śaravane jahau. Any questions? Prashnaḥ santi va? अग्रे गच्छामः वक्तुमिच्छन्ति anybody who has not tried today so far. Tatra bhut kritika prityai.
Tatra bhut kritika prityai. Tatra bhut kritika prityai. Shodharudha mukhambujam. Shodharudha mukhambujam. Tarakadvanta vidhamsi. Tarakadvanta vidhamsi. Sadyashan maturam mahaha. Sadyashan maturam mahaha. Sadyashan maturam mahaha. Tatra abhut kritika prityai. Shoda arudha mukha ambujam. Taraka dvanta vidvamsi. Sadyashan maturam mahaha.
Tatra abhut kritika prityai shodha arudha mukhambujam taraka dhvanta vidhvamsi sadyaha shanmaturam mahaha. Tatra tasmin sharavane sa yatra sharavane shivasya viryam tyaktavati. Tatra abhut nama jatam utpannam. So there was born. So kada abhut sadyaha tatshanam. So as soon as she released it in the sharavana. So sadyaha sapadi kim abhut mahaha tejaha. So it was a similar way in which Bhoja described Rama's birth, right? So what is that? Medhya dayodhya ranehe avirbhutam abhuta purvam param yatkinchidekam mahaha. So tejaha. So mahaha nama tejaha abhut. Hmm. सुमहः तेजः. सो कीदृशं महः षोडारूढमुखाम्बुजं तारकध्वान्तविध्वंसि षाण्मातुरम्. सो विशेषणत्रयम् अस्ति महतः षोडारूढमुखाम्बुजम्. सो षोडा आरूढ मुख अम्बुजम्, मुखाम्बुजम् नाम मुखकमलम्. सो कथम् आरूढम्, आरूढम् नाम प्रादुर्भूतम्. सो डेवलप्ड् इन्टु कथम् षोडा सिक्स्. सो षोडारूढ मुखाम्बुजम्, सो द तेजस्, सो इट् ग्र्यू इन्टु सिक्स् फेसस्. सो इट् वाज़् ओरिजिनलि ए चैल्ड् वित् अ सिङ्गल् फेस् बट् इट् डेवलप्ड् सिक्स् फेसस् षोडारूढ मुखाम्बुजम्. सो षड्भिः प्रकारैः प्रादुर्भूतानि मुखकमलानि यस्य. सो षोडारूढ मुखाम्बुजम् किमर्थम् षोडारूढ मुखाम्बुजम् इति चेत् कृत्तिका प्रीत्यै. सो देवैः शिशोः पालनार्थम् कृत्तिकाः प्रेषिताः, षट् कृत्तिकाः. सो कृत्तिकाः नक्षत्रदेवताः, षट् सङ्ख्याकाः. सो दे आर् सिक्स् इन् नम्बर्स्. सो ताः आगताः. सो तासाम् परितोषार्थम्, यतोहि सर्वाः अपि शिशुं पालयितुम् इच्छन्ति. सो स्तन्यप्रदानार्थं देवैः प्रेषितानां षण्णां कृत्तिकानां परितोषार्थम्. सो सिन्स् आल् आफ् देम् हेड् द डिसैर् टु फीड् द चैल्ड्, सो तासां प्रीत्यर्थं षोडारूढ मुखाम्बुजम्. सो युगपत् षण्णाम् अपि परितोषं साधयितुं षट् मुखानि उत्पन्नानि तस्य कार्तिकेयस्य इत्यर्थः. सो कृत्तिका प्रीत्यै षोडारूढ मुखाम्बुजम् महः. सो अत एव षाण्मातुरम्. सो षण्णाम् मातॄणाम् अपत्यम्. सो षट् षड्भिः कृत्तिकाभिः स्तन्यपानेन वर्धितः, अतः एव सः षाण्मातुरः इत्युच्यते कार्तिकेयः. सो षाण्मातुरम् षण्णाम् मातॄणाम् अपत्यम्. सो कार्तिकेयरूपम् तेजः महः इत्यस्य विशेषणम्. पुनः कीदृशम् तारकध्वान्तविध्वंसि. सो तेजः, तेजः सर्वदा अन्धकारम् नाशयति. अत्र तारकासुरः एव ध्वान्तः, ध्वान्तः नाम अन्धकारः. सो द तेजस् आर् द लैट् विच् वुड् डिस्ट्राय् द डार्क्नेस् आफ् तारक. सो तारकासुररूपस्य अन्धकारस्य विनाशकम्. सो देर् इन्द शरवण वास् बोर्न् अ लैट्, सो विच् डेवलप्ड् सिक्स् हेड्स् फार् डिलैटिङ्ग् द सिक्स् कृत्तिकास्. सो विच् वास् नोन् एस् द चैल्ड् आफ् सिक्स् मदर् षाण्मातुरम् महः. एण्ड् द लैट् विच् वुड् इवेन्चुअलि डिस्ट्राय् द डार्क्नेस् आफ् तारक. सो तारकध्वान्तविध्वंसि महः अभूत्. स्वन्वयः तत्र कृत्तिका प्रीत्यै षोडारूढमुखाम्बुजम् षाण्मातुरम् तारकध्वान्तविध्वंसि महः सद्यः अभूत्. सो तस्मिन् शरवणे षण्णाम् कृत्तिकानाम् परितोषार्थम् षट् मुखानि बिभ्रत्. सो बेरिङ्ग् सिक्स् फेसस् फार् डिलैटिङ्ग् द सिक्स् कृत्तिकास्. तारकासुररूपस्य अन्धकारस्य विनाशकम्. सो द डिस्ट्रायर् आफ् द डार्क्नेस् काल्ड् तारक. सो कार्तिकेयरूपम् तेजः. सो द लैट् आफ् तेजस् इन् द फार्म् आफ् कार्तिकेय तत्क्षणम् जातम्. सो इट् वास् बोर्न् इमीडियट्लि एस् सून् एस् शी रिलीस्ड् दट् वीर्य इन् द शरवण. सो तत्र भूत् कृत्तिका प्रीत्यै षोडारूढमुखाम्बुजम् तारकध्वान्तविध्वंसि सद्य षाण्मातुरम् महः. अस्तु कृत्तिका प्रीत्यै कृत्तिकानां प्रीतिः तस्यै कृत्तिका प्रीत्यै षोढारूढमुखाम्बुजम् षोढा आरूढानि षोढारूढानि कानि मुखाम्बुजानि मुखम् एव अम्बुजम् मुखकमलम् सो द फेस् इट्सेल्फ् इस् द लोटस् सो मुखमेव अम्बुजम् मुखाम्बुजम् षोढारूढानि मुखाम्बुजानि यस्य कत् सो महः इत्यस्य विशेषणम् तारकध्वान्तविध्वंसि सो नकारान्तः नपुंसकलिङ्गः प्रथमाविभक्तौ एकवचनम् सो तारकः एव ध्वान्तः अन्धकारो स्त्रियां ध्वान्तं तमिश्रं तिमिरं तमः सो तारकः एव ध्वान्तं ध्वान्तशब्दः नपुंसकः सो तारकध्वान्तं विध्वंसयति इति तारकध्वान्तविध्वंसि सद्यः इति अव्ययम् सद्यः सपदि तत्क्षणे इति अमरः षाण्मातुरम् सो द स्टाण्डर्ड् एक्साम्पल् फार् तद्धितार्थद्विगुसमास सो षण्णाम् मातॄणाम् अपत्यम् सो अत्र षट् शब्दस्य मातृशब्दस्य च तद्धितार्थद्विगुसमासः सो समासात् अण् इति तद्धितप्रत्ययः सो तद्धितार्थद्विगुसमासः तत्र भवति यत्र तद्धितप्रत्ययः अग्रे भवति सो एक्स्पेक्टिङ्ग् तद्धितप्रत्यय देर् इस् अ समास आफ् अ संख्यावाचक सो दट् इस् तद्धितार्थद्विगुसमास सो षट् शब्दस्य मातृशब्देन समासः भवति तद्धितप्रत्ययः अपि भवति सो षाण्मातुरशक्तिधरः कुमारः क्रौञ्चदारणः इति अमरकोशे अस्ति महः सकारान्तः नपुंसकलिङ्गः प्रथमा एकवचनम् महस्तूत्सव तेजसोः So we have seen this Amara line many times in this class itself. So Mahaha Utsava ha ityarthe api mahashabdaha asti, Tejaha ityarthe api asti. So Tejaha ityarthe atra prayuktam. So tatrabhut krittika prityai shodha arudha mukhambujam tarakad dhanta vidvamsi sadya shanmaturam Mahaha. So Shivasya Shiva Parvatyoho योगः तत्र उत्पन्नं वीर्यं भूमौ पतितं तत् अग्निना स्वीकृतम् अग्निना गङ्गायां त्यक्तं गङ्गया शरवणे त्यक्तं तत्र उत्पन्नं तेजः कृत्तिकाभिः पालितम् सो दट् इस् वै इफ् यु नोटिस् कार्तिकेय हस् नेम् इण्डिकेटिङ्ग् आल् दीस् इवेण्ट्स् सो हि इस् काल्ड् अग्निसम्भवः And he is called Kartikeya because of the Kritikas. He is called Sharavana Bhava because he was born in Sharavana. He is called Gangeya. Right? So there is a famous song also. So Gangeya iti arti Gangayaha apatyam ityasti Agni Sambhavaha Shivasya Putraha tattu astyeva. Right? So Shanmaturaha is also indicative of the same. तत्र भूत् कृत्तिका प्रीत्यै षोढारूढमुखाम्बुजम् तारकध्वान्तविध्वंसि सद्यश्राण्मातुरम् महः इति कुमारसम्भवस्य कथा उक्ता सो इट् वाज् अ प्रसङ्गशः एक्चुलि विश्वामित्र started giving the story of the Ganga. So then he talked about Ganga and Gauri. Tataha Shivasya Vivahaha Tatra Kartikeyasya Janmani Gangayaha Patram Iti Sarvam Uktam. So but the original track is about Ganga. Ramaha Gangayaha Vishayeva Prishtava. Katham Ganga Swargalokad Bhulokamagata Katham Tripadhagamini Abhut Iti. Ataha Agre Gangavataranasya Katha Uchyate. अत्र एकः प्रश्नः एकम् उदाहरणं सो द प्रीवियस् केस् वेन् यु आर् टाकिङ्ग् अबौट् सप्तार्थिः सो उपनिषदि अपि सप्तजिह्वः लेलायमान इति सप्तजिह्वः सो देर् आर् द सेवेन् टङ्ग्स् आर् द सेवेन् फ्लेम्स् आफ् अग्नि सो दे आर् मेन्शन्ड् इन् द उपनिषत् सो काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा स्फुलिंगिनी विश्वरुची च देवी. सो दीस सेवन आर सेड टू बी द सेवन फ्लेम्स द देवीज असोसिएटेड विथ अग्नि. सो दट इज वाई ही इज कॉल्ड सप्तजिह्वः और सप्तार्थिः. धन्यवादाः महादेवन् महोदय. सो अत्र एकः प्रश्नः अस्ति. सो मुखाम्बुजम्, सो मुखमेव अम्बुजम् और मुखम् अम्बुजम् इव इति कथं भेदः इति. उभयथापि कर्तुं शक्यते इति. ईदर् वे इट् इस् अ कर्मधारय समास. वस्तुतः समासे मुखम् अम्बुजम् इत्येव भवति. तत्र अम्बुजशब्दस्य अम्बुजसदृशम् इति लक्षणा भवति. सो यथा नीलः मेघः इति नीलशब्दः मेघशब्दस्य विशेषणम्, एवमत्रापि मुखम् अम्बुजम् इत्येव समासे अवयवः भवति. सो द एक्चुअल् वर्ड्स् विच् टेक् पार्ट् आर् मुख एण्ड् अम्बुज. सो तत्र अम्बुजपदेन अम्बुजसदृशम् इत्यर्थः भवति. सो प्रसङ्गमाश्रित्य कदाचित् उपमात्वेन कदाचित् रूपकत्वेन स्वीक्रियते. उभयथापि क्लेशः नास्ति. सो ईदर् वे इस् ओके. सो देर् आर् सम् केसेस् वेर् अलङ्कारशास्त्रे तस्य चर्चा भवति. तत्र रूपकत्वेन स्वीकरणीयं वा उपमात्वेन स्वीकरणीयं वा. सो देर् आर् सम् केसेस् वेर् दे डिसैड् अलङ्कार बेस्ड् आन् वेदर् इट् इस् उपमा और् रूपक. But normally either way is fine. It doesn't affect the meaning of the word. Yada arthasya badhaha na bhavati tatha ubhayathapi vaktum shakyate. तत्र समासः तु उपमितं व्याघ्राधिभिः सामान्य अप्रयोगे इत्यनेन समासः वक्तव्यः. सो उपमितं, द वन् विच् इस् बीयिङ्ग् कम्पेर्ड् इस् कम्बैनिङ्ग् वित् वर्ड् विच् इण्डिकेट् द उपमान. सो इट् इस् द समासः बिट्वीन् उपमेय एण्ड् उपमान. सो द रिसेम्ब्लेन्स्, द डिफरेन्स् बिट्वीन् उपमा एण्ड् रूपक, दट् इस् सेयिङ्ग् दिस् इस् लैक् दट् आर् दिस् ईस् दट्. It is just a degree of comparison. So, tatra klesha nasti. Vyakarana drishtya klesha nasti. Agre gachhamaha. Agrima shlokaha. Anybody? Raja Lakshmi.
No, Lokha.
त्रैविध्यं श्रूयतां वत्स.
त्रैविध्यं श्रूयतां वत्स. त्रैविध्यं श्रूयतां वत्स.
सरितस्त्रिदिवौकसाम्.
सरितस्त्रिदिवौकसाम्. सरितस्त्रिदिवौकसाम्.
यथोक्तं हव्यमश्नन्त्याः.
यथोक्तं हव्यमश्नन्त्याय. यतोक्तं हव्यमश्वन्त्या.
देवताया इवाध्वरे.
देवताया इवाध्वरे. I'll try पदस्यतः. त्रिविद्यां.
त्रैविद्यं.
त्रैविद्यां. श्रूयतां. वत्स. सरित. स्त्री. सरितः. स्त्री. दिवः. औकसम्. औकसाम्.
एकमेव. दिवौकसाम्. त्रिदिव औकसाम्. त्रिदिवौकसाम्.
सरितः. त्रि. दिवौकसाम्. यथोक्तम्. ह. अव्ययम्.
हव्यम्.
अव्यम्. अश्नन्त्या.
अश्नन्त्याः.
अश्नन्त्याः. देवताय इव अध्वरे.
अध्वरे. सम्यक्. त्रैविध्यं श्रूयतां वत्स. सरितः त्रिदिवौकसां. त्रिदिव ओकसाम् त्रिदिव ओकसाम् यथोक्तम् यथा उक्तम् यथोक्तम् हव्यम् अश्नन्त्याः देवतायाः इव अध्वरे. सो वत्स इदानीं विश्वामित्रः रामं कथयति. हे वत्स रामभद्र इति रामस्य सम्बोधनम्. श्रूयताम् आकर्ण्यताम् लिसन् किं श्रूयताम् त्रैविध्यम्. सो त्रैविध्यम् नाम त्रिप्रकारकत्वम्. सो द त्री वेस् द त्री टैप्स् त्रैविध्यम् त्रिविधस्य भावः त्रैविध्यम्. सो कस्याः त्रैविध्यम् त्रिदिवौकसाम्. सो त्रिदिवौकसाम् नाम देवानाम् सरितः नद्याः. सो त्रिदिवौकसाम् सरितः त्रैविध्यम्. सो द त्री पार्ट्स् आफ् द सेलेस्टियल् रिवर् द रिवर् आफ् द गाड् दट् इस् देवनदी गङ्गा. सो तस्याः त्रैविध्यम् श्रूयताम्. कस्याः इव सो तत्र उपमानम् दीयते त्रैविध्यम् इव. सो लैक् द त्री टैप्स् आफ् हूम् देवतायाः आफ् द देवता. सो द देवता रेफर् टु हियर् इस् अग्नि. सो का कीदृशी सा देवता हव्यम् अश्नन्त्याः. सो द देवता विच् अश्नाति नाम भुङ्क्ते. सो विच् पार्टेक्स् द हव्य. Havya is the offering. Havis. Adhyadikam. The ghee and other offerings. So, kidrisham havyam adhvare yage yathoktam. Yathoktam nama shastravihitam. So, the devata which partakes the havya which is offered according to the shastras during yajna. सो यागेषु शास्त्रविहितम् हविः अश्नाति. का देवता अश्नाति? अग्निः. सो अग्नेः इव देवनद्याः गङ्गायाः अपि त्रैविध्यम् अस्ति. अग्निः त्रिविधः तत्तु ज्ञायते. गार्हपत्यः आहवनीयः दक्षिणाग्निः इति अग्नेः यथा त्रैविध्यम् तथा गङ्गायाः अपि त्रैविध्यम्. सो त्रिपथगामिनी इत्युच्यते गङ्गा. शी फ्लोस् इन् द स्वर्ग द भूलोक एण्ड् द पाताल. ओके. सो एवं यथा अग्नेः तथा गङ्गायाः अपि त्रैविध्यमस्ति. तत् कथं तस्याः त्रैविध्यम् इति श्रूयताम् इति विश्वामित्रः रामं कथयति. सो वत्स अध्वरे यथोक्तं हव्यम् अश्नन्त्याः देवतायाः इव त्रिदिवौकसाम् सरितः त्रैविध्यम् श्रूयताम्. किम् तात्पर्यम्? यज्ञेषु शास्त्रविहितम् हविः भुञ्जानस्य अग्नेः इव देवनद्याः गङ्गायाः त्रिप्रकारकत्वम् आकर्णय. सो लिसन् टु द त्री पार्ट्स् आर् द त्री वेस् टेकन् बै गङ्गा. सो लैक् द त्री टैप्स् आफ् द डीटि that is Agni who partakes the havis in yajñas. So garbhapatya ahavaniya dakshinagni bhedena yatha agnehe traividhyam tatha swarloka bhuloka patala gamitvena gangayaha api traividhyam. So the second line, the upamana is Agni. सो देवतायाः इति स्त्रीलिङ्गे अस्ति, किन्तु देवता शब्दः देवः इत्यर्थे. सो अग्नेः त्रैविध्यम् इव गङ्गायाः अपि त्रैविध्यम् विद्यते. तत् कथमिति श्रूयताम् इत्यर्थः. सो त्रैविध्यम् त्रयः विधाः यस्य सः त्रिविधः. त्रिविधस्य भावः त्रैविध्यम्. श्रूयताम् श्रु श्रवणे धातोः कर्मणि लोट्लकारः. सो शृणोतु इस् कर्तरि लोट्लकार. श्रूयताम् इस् कर्मणि लोट्लकारः प्रथमपुरुषे एकवचनम्. सो सरितः सरित् तकारान्तः स्त्रीलिङ्गः षष्ठीविभक्तौ एकवचनम्. सो नदी सरित तरंगिणी शैवलिनी इत्यादि अमरकोशे दृश्यन्ते। त्रिदिवौकस इति सकारान्तः पुल्लिङ्गः षष्ठी विभक्तौ बहुवचनम्। सो त्रिदिवः, त्रिदिवः नाम स्वर्गः। सो त्रिदिवः ओकः, ओकः स्थानम्। सो स्वर्गः येषां स्थानम्, स्वर्गलोक निवासिनः इत्यर्थः। सो त्रिदिवौकस् शब्दः स्वरव्ययं स्वर्ग नाक त्रिदिव त्रिदशालयाः। सो स्वर्गः त्रिदिवः, सो त्रिदिवः ओकः, ओकः स्थानं येषां, ते त्रिदिवौकसः देवाः इत्यर्थः। यथोक्तम् उक्तम् अनतिक्रम्य यथोक्तम्, शक्तिम् अनतिक्रम्य यथाशक्ति, एवम् उक्तम् अनतिक्रम्य यथोक्तम् इति अव्ययीभावसमासः। हव्यम् अश्नन्त्याः अशभोजने धातोः शतृ प्रत्ययः, ततः स्त्रीलिङ्गे नीप् प्रत्ययः। अश्नन्ती ईकारान्तस्त्रीलिङ्गः, तस्य षष्ठी विभक्तौ एकवचनम्। देवतायाः इव अध्वरे, अध्वरः यागः, यज्ञः सवः अध्वरः यागः, अकारान्तः पुल्लिङ्गः, सप्तमी विभक्तौ एकवचनम्। त्रैविध्यम् श्रूयताम् वत्स सरितस्त्रिदिवौकसाम्, यथोक्तम् हव्यमश्नन्त्याः देवताया इवाध्वरे। अद्य कार्तिकेयस्य जननं दृष्टम्। सो शिवस्य वीर्ये भूमौ पतिते सति पार्वती क्रोधेन देवान् भूमिं च शप्तवती। अनपत्यानथामत्यान् बहुभार्यान् च मेदिनीम् अकरोदम्बिका क्रोधः पुत्रालाभसमुद्भवः। सो अग्निः शिवस्य वीर्यं स्वीकृत्य गङ्गायां तत् स्थापयामास। वह्निरह्नाय जाह्नव्यां न्यषिञ्चद् वीर्यमैश्वरम्। गङ्गा शरवणे त्यक्तवती, सापि सप्तार्चिषा क्षिप्तम् तेजस्तद्वोढुमक्षमा, हिमवत्प्रान्तकान्तारे श्रान्ता शरवणे जहौ। गङ्गा शरवणे वीर्यम् त्यक्तवती, तत्र कार्तिकेयः उत्पन्नः। तत्राभूत् कृत्तिका प्रीत्यै षोढारूढमुखाम्बुजम्, तारकध्वान्तविध्वंसि सद्य षाण्मातुरम् महः। ततः गङ्गावतरणस्य कथा आरभ्यते विश्वामित्रेण। त्रैविध्यम् श्रूयताम् वत्स सरितस्त्रिदिवौकसाम्, यथोक्तम् हव्यमश्नन्त्या देवताया इवाध्वरे। अग्रिमवर्गे गङ्गावतरणस्य कथाम् पश्यामः। एनी क्वेश्चन्स्? गायत्री भगिनी मङ्गलम् करोति वा?
लक्ष्मीं तनोतु नितराम् इतरामपेक्षम् अङ्घ्रिद्वयम् निगमशाखिशिखाप्रवालम् हैरम्भम् अम्बुरुह धम्बर शौर्यनिघ्नम् विघ्नाद्विभेद शतधार दुरन्धरम् नः।
सम्यक्, धन्यवादाः। अग्रिमवर्गे अनुवर्तयामः।